अस्तु, अस्माकम् अद्यतनपाठः अस्ति यथार्थः अनुभवः. तस्मात् प्राक् गतसप्ताहस्य सारांशं दृष्ट्वा अग्रे सरेम. एतावता प्रत्यभिज्ञायाः विषयः चर्चितः आसीत्. विस्तरेण स्मृतिलक्षणं दृष्टं, दलत्रयस्य सार्थकता अपि च प्रत्यभिज्ञायाः स्वरूपवर्णनम् अपि दृष्टम्. प्रत्यभिज्ञा कश्चन प्रत्यक्षविशेषः यस्य जननं संस्कार इन्द्रियाभ्यां जायते. तत्र तु विष्णुगुप्तस्य उदाहरणं दृष्टं. तस्मिन् उदाहरणे चैत्रदर्शनं प्रथमम् अभवत्, कुत्र कार्तिकमासि पाटलीपुत्रे अभवत् प्रथमदर्शनं. विषयत्रयात्मकं प्रत्यक्षज्ञानम् आसीत्. ज्ञानम् इति विशेषः, कार्तिकमासत्वं पाटलीपुत्रत्वं च प्रकारते. कार्तिकमासत्वं प्रकारता अपि च पाटलीपुत्रत्वं प्रकारता. अनुभवः इति कृत्वा अनुभवः क्षणद्वयात्मकमेव. संस्कारः सञ्जातः अनुभवेन, अनुभवः ततः नष्टः. पुनः चैत्रस्य दर्शनं भवति. प्रयागक्षेत्रे माघमासि. इदानीं चैत्रः प्रयागक्षेत्रवृत्तित्ववान्, माघमासवृत्तित्ववान् च. इत्युक्ते तादृशे ज्ञाने विषयद्वयम् अस्ति इति कृत्वा प्रयागक्षेत्रवृत्तित्वं माघमासवृत्तित्वम् इति. अस्य विशिष्टप्रत्यक्षज्ञानस्य अंशद्वयं, तस्य आकारः भवति सोऽयं चैत्रः इति. इदानीं संस्कारसहकृतेन इन्द्रियेण फलति प्रत्यभिज्ञा इति कृत्वा न केवलम् इन्द्रियसन्निकर्षेण जायते, संस्कारस्य अंशः अपि वर्तते इति कृत्वा अंशद्वयम् इति वदामः. इत्थम् एकं वा दलद्वयं स्वीकृत्य लक्षणे दोषः आपद्यते इत्यतः दलत्रयस्य आवश्यकता परिलक्षितम्. इदानीं दलसार्थकता, दलसार्थक्यत्वं दृष्ट्वा अग्रे सरेम. तत्र स्मृतिलक्षणस्य दलसार्थक्यं किम् इति पश्याम. प्रथमम् एकम् दलशः स्वीकृत्य, एकम् दलं स्वीकृत्य तदनन्तरं दलद्वयं स्वीकृत्य दोषं किम् इति पश्यामः. राजेन्द्रमहोदय.
आं भगिनि.
प्रथमं लक्षणवाक्यम् उक्त्वा एकमेव दलं स्वीकृत्य कीदृशः दोषः भवति इति वद कृपया.
अस्तु, इदानीं प्रति अभिज्ञास्वरूप वर्णनं एतस्मिन् प्रसङ्गे तत् संस्कारजन्यत्वे सति ज्ञानत्वं सोऽयं चैत्रः इति आकारे प्रत्यभिज्ञायाम् अतिव्याप्तं. यथा वदामः संस्कारजन्यतम् एव मातृपदं प्रयुज्य न कुर्मः. तत्र किं भवति, तत् तु संस्कारजन्यत्वे तु समृद्धिविषये तु तस्य कारणता अस्ति, परन्तु इदानीं तु प्रत्यभिज्ञायाम् अतिव्याप्तिः भवति. यथा प्रत्यभिज्ञा इन्द्रियेण जायते, अपि च संस्कारसहकृतेन जायते. मातृपदम् न उपयुजामः, तत्तु अतिव्याप्तिः जायते प्रत्यभिज्ञां कृते. यत्र संस्कारसह कृतं जायमाना अस्ति.
तत्तु सत्यम् अस्तु. इदानीं संस्कारजन्यत्वम् एव स्वीकुर्मश्चेत् इति आरम्भं कृतवान् खलु भवान्? हा, तदा किं भवति दोषविषये? कीदृश कुत्र दोषः भवति यदि संस्कारजन्यत्वम् एव अस्ति लक्षणवाक्ये?
तत्र तु प्रतिविज्ञायाम् अतिव्याप्तिः भवति.
एवं वा, संस्कारजन्यत्वम् इति एकमेव दलम् अस्ति चेत् संस्कारेण एव जन्यं ज्ञानम् इति भवति खलु?
आम् भगिनि.
तदा कुत्र भवति दोषः?
संस्कारेण एव जन्यते यथा, तत् तु स्मृतिः अपि स्मृतौ अपि दोषः आगच्छति, प्रत्यभिज्ञाम् अपि दोषः आगच्छति. यथा प्रत्यभिज्ञायाम् अतिव्याप्ति भवति तथा यथा प्रत्यभिज्ञायाम्
अस्तु. इदानीमेव दृष्टं खलु, प्रत्यभिज्ञा कृते अंशद्वयम् आवश्यकं खलु?
आम् आं भगिनि. संस्कारः इन्द्रियेण अपि.
हा, परन्तु मम प्रश्नः अस्ति यत् केवलं संस्कारजन्यत्वं न तु इन्द्रिय अजन्यः इति. केवलं संस्कारजन्यत्वम् एव दलम् अस्ति चेत्
यथा संस्कारध्वंस भवति तथा तु तत् संस्कारः अपि तस्य कारणं भवति एव. यथा संस्कारजनित एव वदामः, संस्कारध्वंसं प्रति अपि अतिव्याप्ति तत्र जायते.
किमर्थं?
यथा संस्कारः तस्य कारणं, संस्कारध्वंसस्य प्रति कारणम् अस्ति. यथा घटध्वंसं प्रति कारणम् अस्ति. यदि तत् घटः न स्यात् तत् तु कस्य ध्वंसं भवति?
तथा
घटमपि घटध्वंसं प्रति कारणम् अस्ति. तथैव संस्कारः अपि संस्कारध्वंसं प्रति कारणं भवति.
अतः समीचीनम्. अतः अतिव्याप्तिः कुत्र भवति?
संस्कारध्वंसे
भवति. प्रतिध्वनिः आगच्छति. अन्ये सर्वे कृपया म्यूट् कुर्वन्तु.
अत्र भगिनि प्रायशः मम दूरवाण्या कोऽपि जङ्क् काल् करोति इदानीं, तत्कारणात् तत् किञ्चित्
अस्तु. अग्रे रामप्रिया भगिनी, म्यूट् कृतं वा महोदय?
इदानीं गच्छति शङ्का, पुनः आगच्छति चेत् म्यूट् करोमि. इदानीम् अस्ति वा? सम्यक् अस्ति वा इदानीं?
सम्यक् अस्ति एव. न न न न
नास्ति,
ध्वनिः आगच्छति पुनः.
अस्तु, अहं म्यूट्
अस्तु. रामप्रिया भगिनी, इन्द्रिय अजन्यत्वं दलं एकमेव दलं चेत् किं भवति?
इदानीम् अपि
अस्ति खलु.
भगिनि अहं तु म्यूट् कृतवान्, तत्र मम दूरवाण्या न अस्ति. अहं पुनश्च म्यूट् करोमि, परन्तु भवत्याः कृते
अन्ये सर्वे कृपया म्यूट् कुर्वन्तु. धन्यवादः. रामप्रिया भगिनी वदतु.
इदानीं द्वितीयदलम् अस्ति संस्कारभिन्न अजन्यत्वम् इति. तत्र तु अतिव्याप्तिः कुत्र भवति इत्युक्तौ, आकाशे अतिव्याप्तिः आकाशादौ अतिव्याप्तिः भवति. कथम् अत्र अतिव्याप्तिः इत्युक्ते यदा संस्कारभिन्न अजन्यत्वम् इत्युक्ते इन्द्रिय अजन्यत्वम् इति वक्तुं शक्नुमः. आकाशः तु नित्यद्रव्यमस्ति. तत्र अतिव्याप्तिः
नित्यद्रव्यं तस्य जन्यम् एव न भवति इति कृत्वा इन्द्रियेण अवश्यम् अजन्यम् अस्ति आकाशम् इति कृत्वा आकाशे अतिव्याप्तिः. अस्तु, सन्ध्या भगिनी, अखिल भगिनी, इदानीं कथं सर्वेषां म्यूट् कथं करणीयम्?
स्टार् सिक्स् इति एकक्षणं भगिनि.
धन्यवादः.
स्टार् फैव्.
स्टार् फैव् इति कुत्र नोदनीयम्?
अत्र कीपेड् अस्ति खलु भगिनि, भवती तत्र कम्प्यूटर् माध्यमे आगतवती खलु. अत्र दक्षिणतः कीपेड् अस्ति, पश्यति वा? स्टार् फैव् इति, न न, स्टार् फैव् इति करोतु, सर्वेषां म्यूट् भवति. तदनन्तरं यः वक्तुम् इच्छति सः स्टार् सिक्स् करोति चेत् अन्म्यूट्.
अस्तु अस्तु, धन्यवादः भगिनी.
चिन्ता नास्ति.
अस्तु, सन्ध्या भगिनी कृपया. आं भगिनि. केवलं ज्ञानत्वं दलम् अस्ति चेत् किं, कुत्र अस्ति अतिव्याप्तिः?
केवलं ज्ञानत्वम् इति अस्ति चेत् तत्र अनुभवः इत्यपि ज्ञानम् अस्ति, तर्हि तत्र अतिव्याप्तिः भवति.
समीचीनं. परन्तु अत्र अस्माकं लक्षणवाक्ये तु दलद्वयम्, इतोपि दलद्वयमपि आवश्यकं भवति. केवलं ज्ञानत्वम् इति वदनेन अनुभवे अतिव्याप्तिः. समीचीनम्. अस्तु, अग्रे शिखवन महोदय, दलद्वयं स्वीकृत्य वदतु महोदय.
भगिनी क्षम्यताम्, इदानीमपि किञ्चित् प्रतिध्वनिः अस्ति एव,
न जानामि.
अपि च राजेन्द्रमहोदयस्य एव दूरवाणीसङ्केतः अत्र आगच्छति, तर्हि प्रायः महोदयः म्यूट् न कृतं वा, न जानामि.
हरि ओम्, इदानीं सम्यक् अस्ति खलु? अस्तु, अहमेव म्यूट् कृतवती. अस्तु, इदानीं शुकवनं महोदय, कृपया.
इदानीं दलद्वयं स्वीकुर्मश्चेत् संस्कारजन्यत्वम् अपि च ज्ञानत्वम् इति दलद्वयं स्वीकुर्मश्चेत् संस्कार इतर अजन्यत्वम् इति दलं त्यजामश्चेत् प्रत्यभिज्ञायाम् अतिव्याप्तिः भवति. किमर्थमित्युक्ते प्रत्यभिज्ञा अपि संस्कारे जन्यं, संस्कारेण जन्यम् अपि च ज्ञानमपि इति कृत्वा प्रतिविज्ञायाम् अतिव्याप्तिः भवति.
समीचीनम्. अनन्तरं
संस्कार इतरजन्यत्वं संस्कार इतर अजन्यत्वम् अपि च ज्ञानत्वम् इति दलद्वयं स्वीकुर्मश्चेत् इत्युक्ते संस्कारजन्यत्वं त्यजामश्चेत् रूपे अतिव्याप्तिः भवति, अनुभवे अतिव्याप्तिः भवति.
एकनिमिषं पुनः वदतु महोदय.
संस्कार इतर अजन्यत्वम् अपि च ज्ञानत्वम् इति दलद्वयं स्वीकुर्मश्चेत् इत्युक्ते संस्कारजन्यत्वं त्यजामश्चेत् चेत् रूपे अतिव्याप्तिः भवति.
इत्युक्ते रूपम् इन्द्रिय अजन्यं वा? वदतु महोदय.
हा, संस्कार इतर अजन्यम्.
हा, इत्युक्ते भवान् किं वदति?
न जन्यं रूपं संस्कारेण न जन्यम् अपि च ज्ञानम्.
अस्तु अस्तु अस्तु, आम् आं क्षम्यताम्
इति कृत्वा रूपे अतिव्याप्तिः भवति.
संस्कारजन्यत्वम् अपि च
संस्कारजन्यत्वं
इत्युक्ते इन्द्रिय अजन्यत्वं खलु?
नास्ति, संस्कार इतर अजन्यत्वं.
संस्कार इतरं किम् अस्ति? अस्माकं
किमपि
न अस्मिन् यथा रूपलक्षणे दृष्टम् अपि तु स्पर्शलक्षणे दृष्टं किमपि विशिष्टं विशिष्टं पदार्थं सूचितमासीत् खलु तत्र?
आमाम्, इन्द्रियमेव अत्रापि.
हा आम्, तर्हि
संस्कार इतर इत्युक्ते इन्द्रिय अजन्यत्वम्. आम्, इन्द्रिय अजन्यत्वम् इति स्वीकुर्मश्चेत् रूपे अतिव्याप्तिः न भवति.
तदेव
इन्द्रिय अजन्यत्वम् अपि च ज्ञानत्वम् इति दलद्वयं स्वीकुर्मश्चेत् इन्द्रियेण अजन्यं भवेत् अपि च ज्ञानमपि भवेत् इति चेत्
कस्य ज्ञानं तादृशम् अस्ति? कस्य ज्ञानम्? अस्माकं ज्ञानं तु न, पुरुषस्य ज्ञानं तादृशं न भवति, यतोहि अस्माकं ज्ञानम्
ईश्वरस्य ज्ञानम् इति भवति वा?
आम् आम् आम्.
ओ सम्यक्. आम्, ईश्वरस्य ज्ञानं तु इन्द्रियेण जन्यं नास्ति. किमर्थम् इत्युक्ते तस्य ज्ञानं तु नित्यम् इति कृत्वा.
आम् आम्,
ईश्वरस्य ज्ञाने अतिव्याप्तिः भवति.
समीचीनम्.
संस्कार इतर अजन्यत्वं ज्ञानत्वम् इति दलद्वयमेव स्वीकुर्मश्चेत् ईश्वरस्य ज्ञाने अतिव्याप्तिः भवति.
समीचीनं.
संस्कारजन्यत्वम् अपि च संस्कार इतर अजन्यत्वम् इत्युक्ते ज्ञानत्वं त्यजामः चेत् संस्कारजन्यत्वम् अपि भवेत् अपि च इन्द्रिय अजन्यत्वम् अपि भवेत् चेत्
संस्कारेण स्मृति तु जन्या, अन्यत् किमपि अन्यत् अपि अन्यः अपि जन्यः अस्ति संस्कारेण, पूर्वमपि दृष्टं यथा घटध्वंसः, तस्य कृते कः आवश्यकः इति.
ओ, घटध्वंसार्थं घटमपि आवश्यकं. तादृशं अत्र किं वदामः, संस्कारध्वंसेन
जन्यः, संस्कारेण जन्यः ध्वंसः खलु?
आम् 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 आम्
आम्. इन्द्रियेण अजन्यः अस्ति.
आम् इति कृत्वा संस्कारध्वंसे अतिव्याप्तिः भवति.
समीचीनम्.
आम्
अस्तु, उत्तमम्. अतः एव सारांशत्वेन अन्य केनापि आगतं वा?
भगिनी शृणोमि, पुस्तकं नास्ति.
पुष्पभगिनी खलु? अस्तु तर्हि सरला भगिनी सिद्धा वा? रामप्रिया भगिनी सारांशत्वेन वदतु. इदानीं अतिव्याप्तिः दृष्टम् अस्माभिः षड् स्थलेषु यत्र दलम् एकमेव वा दलद्वयं भवति. अतः सारांशत्वेन किं ज्ञातम्?
सारांशत्वेन मातृपदस्य आवश्यकता ज्ञातम्. यदा मातृपदं योजयामः चेदेव वयं स्मृतिः लक्षणे अतिव्याप्तिदोषः न भवति. एवं वा?
अस्तु, कुत्र अस्तु, परन्तु दलद्वयं वा दलम् एकं न पर्याप्तं भवति इति कृत्वा कति दलानि आवश्यकानि?
दलत्रयं, संस्कार संस्कार मातृजन्यत्वं, द्वितीयमस्ति संस्कारभिन्नजन्यत्व जन्यत्वं संस्कारभिन्न अजन्यत्वं संस्कारजन्यत्वम् अपि तु ज्ञानत्वम् इति दलत्रयम् आवश्यकम्.
समीचीनम्, अस्तु, इदानीं स्पष्टम् इति मन्ये. प्रश्नः अस्ति चेत् कृपया पृच्छतु. अस्तु, तर्हि अग्रे सरेम. इदानीं गतसप्ताहे यत् पठितम् अस्माभिः तत्र किञ्चित् इतोपि विस्तरेण चर्चा आसीत्. पृष्ठसङ्ख्या अस्ति एकत्रिंशत्यधिक एकशतम् इति पृष्ठं. तत्र प्रथमपरिच्छेदस्य अन्तिमं वाक्यमस्ति. राजेन्द्रमहोदय, कृपया पठतु. अस्तु, एकनिमिषम्.
आं भगिनि, प्रथमपरिच्छेदस्य अन्तिमवाक्यम्, इदम् अंशद्वयं चैत्रे अवगाह्यमानं, तथा भगिनि, इदम् अंशद्वयं चैत्रे अवगाह्यमानं ज्ञानं प्रत्यभिज्ञा इति शास्त्रे प्रसिद्धम्. अत्र तु यावत् स्मरामि तावत् वदामि. इदानीं तु ज्ञानं तु कर्ता अस्ति अत्र अर्थ. अत्र अंशद्वयं यथा चैत्रे प्रथमं तु पाटलिपुत्रे कार्तिकमासि अवलोकितः अस्ति. तदनन्तरं प्रयागक्षेत्रे माघमासे तत्र दृष्टवान् विष्णुगुप्तेन दृष्टः. तत्र अंशद्वयं चैत्रे हि अवगाह्यमानं ज्ञानं प्रत्यभिज्ञा ते अंश.
अस्तु, इदानीं अंशद्वयं चैत्रे अवगाह्यमानं ज्ञानम् इति अस्ति खलु? अत्र साधारणं वाक्यं किम् इति पठतु. इत्युक्ते अन्यानि पदानि त्यक्त्वा साधारणं सरलतया वाक्यं किं भवति?
इदम् अंशद्वयं चैत्रे अंशद्वयं यः चैत्रे
प्रत्यभिज्ञा इति शास्त्रे प्रसिद्धम् इति मूलं मूलविषयः खलु तत्र
आम् आं भगिनि
प्रत्यभिज्ञा शास्त्रे प्रसिद्धम् एकनिमिषं प्रत्यभिज्ञा शास्त्रे प्रसिद्धम् इति मूलविषयः तत्र तस्मिन् वाक्ये खलु
अंशद्वयं तथा चिन्तयामि तत् संस्कार संस्कारसह कृतेन अपि च प्रत्यक्ष ज्ञानं प्रत्यक्षेण यत् ज्ञानम् उत्पद्यते सः अभिज्ञा प्रत्यभिज्ञा तत्र वदामः
तर्हि सरलतया वदामश्चेत् प्रत्यभिज्ञा शास्त्रे प्रसिद्धम् कीदृशी प्रत्यभिज्ञा इति प्रश्ने कृते उत्तरमस्ति अंशद्वयम् अवगाहमानं ज्ञानम् खलु तर्हि अंशद्वयम् अवगाहमानं ज्ञानं प्रत्यभिज्ञा इत्युक्ते अंशद्वयम् अवगाहमानं ज्ञानं विशेषणम् अस्ति प्रत्यभिज्ञायाः विशेषणं कीदृशी प्रत्यभिज्ञा इत्युक्ते अंशद्वयम् अवगाहमानं ज्ञानम् इति वदामः खलु तर्हि तत्र अवगाहमानं ज्ञानम् इति पदस्य भिन्नया रीत्या कथं वदामः इत्युक्ते तत्र अवगाहमानम् इति पदस्य रूपं किम् रूपं रूपं तस्य रूपं किं मानामानम् क्रियापदं किं तत्र
अवगच्छामि
अस्तु अस्तु अवगाहमानं ज्ञानम्
ज्ञानं तु कर्ता अस्ति
एकनिमिषं कर्ता कर्म तत्तु भिन्नम् अस्ति अत्र अवगाह ज्ञानम् अवगाहमानम् अस्ति इति वदामश्चेत् यदि अवगाहते इति रूपं स्वीकुर्मः तदा वाक्यं किं भवति
ज्ञानम् अंशद्वयेन अवगाह अवगाहमानते
ज्ञानम् अवगाहते
अवगाहते
कञ्चित् अवगाहते ज्ञानं ज्ञानम् अंशद्वयम् अवगाहते इति आयाति खलु
आम् आम्
ज्ञानं किमपि अवगाहते इत्युक्ते तस्मिन् अन्तर्भूतम् अन्तर्भूतः विषयः अस्ति इति अर्थः ज्ञानं तु सविषयकम् अस्ति इत्युक्ते ज्ञाने किमपि विषयः अस्ति घटस्य विषयः वा पुस्तकस्य विषयः वा किमपि खलु अत्र ज्ञानम् अंशद्वयम् अवगाहते अंशद्वयं किम्
एकं तु प्रत्यक्षं प्रत्यक्षविशेषः अपि च संस्कारसह कृतेन संस्कार
समीचीनः एकं तु प्रत्यक्षज्ञानम् अनन्तरं तु अन्यत्तु संस्कारजन्यं ज्ञानम् इति अंशद्वयं भवति इदानीं अंशद्वयम् अवगाहमानं ज्ञानं प्रत् अभिज्ञा इति प्रसिद्धम् इति अस्ति इति वदामश्चेत् तत्र प्रत्यभिज्ञा मातृपदं खलु बालकः अस्ति इत्यस्मिन् वाक्ये बालकः कर्तृपदं तथैव प्रत्यभिज्ञा शास्त्रे प्रसिद्धं प्रत्यभिज्ञा शास्त्रे अस्ति इति वाक्ये इत्यस्मिन् वाक्ये प्रत्यभिज्ञा कर्तृपदं खलु इदानीं ज्ञानं वा अवगाहमानं ज्ञानं वा अंशद्वयम् अवगाहमानं ज्ञानं विशेषणं प्रत्यभिज्ञायाः विशेषणम् इति कृत्वा किमस्ति
शास्त्रे प्रसिद्धं?
न न, कर्तृ वा कर्म इति प्रश्नः. कर्तविज्ञा तु कर्तृपदमस्ति वाक्ये.
आम्
विशेषणमस्ति चेत् उन्नतः बालकः अस्ति.
अंशद्वयं
उन्नतः बालकः अस्ति चेत् बालकः कर्तृपदं वा कर्मपदम्?
बालकः कर्तृपदम्.
उन्नतः
उन्नता तु विशेषणम्.
विशेषणम् अस्ति, अतः कर्तृपदेन सह अस्ति इति कृत्वा तत्तु कर्तरि शानच् इति, न तु कर्मणि शानच् इत्येव विषयः. स्पष्टं वा?
किञ्चित् अवगच्छामि.
महोदयेन उक्तं खलु पुस्तकं पठन्. हां भगिनि,
पुनरपि एकवारं कृपया वदतु.
अवश्यं महोदय. अस्तु, अस्माकं सरलवाक्यं किम् अस्ति? प्रत्यभिज्ञा. महोदय एकनिमिषम् अहं म्यूट् करोमि. हां, प्रत्यभिज्ञा शास्त्रे प्रसिद्धम् इत्यस्मिन् वाक्ये प्रत्यभिज्ञा तु कर्तृपदं खलु? इदानीम् अंशद्वयम् अवगाहमानं ज्ञानं प्रत्यभिज्ञा इति शास्त्रे प्रसिद्धम् इति भवति. इत्युक्ते प्रत्यभिज्ञा केनचित् विशिष्यते. केन? विशिष्टेन ज्ञानेन विशिष्यते. इत्युक्ते अंशद्वयम् अवगाहमानेन ज्ञानेन विशिष्यते इति कृत्वा अंशद्वयम् अवगाहमानं ज्ञानं विशेषणम् अस्ति. अवगाहमानम् इत्यस्य रूपं शानच् प्रत्ययान्तरूपं खलु? अवगाहते. तस्य पृथक् वाक्यं किं भवति? ज्ञानम् अंशद्वयम् अवगाहते इति भवति. सर्वथा ज्ञानं विषयम् अवगाहते. अयं घटः इति ज्ञानं किम् अवगाहते? घटमेव अवगाहते. यत् यः विषयः अस्ति, ज्ञानस्य विषयः यः अस्ति, तम् एव अवगाहते ज्ञानं सर्वदा. इत्युक्ते तस्मिन् ज्ञाने विषयः अन्तर्भूतः अस्ति. घटः इति विषयः. अतः ज्ञानम् अंशद्वयम् अवगाहते. भिन्नया रीत्या अंशद्वयम् अवगाहमानं ज्ञानम् इति वदामः. प्रत्यभिज्ञा कीदृशी अस्ति? अंशद्वयम् अवगाहमानं ज्ञानम् इति कृत्वा तदपि कर्तृपदेन एव भवति. अतः तत्तु कर्तरि शानच् अस्ति.
बहु सम्यक्, बहु सम्यक्, धन्यवादः.
इदानीं महोदय, राजेन्द्रमहोदय, स्पष्टं वा?
सम्यक् महोदय.
राजेन् तस्य म्यूट् कृतं, क्षम्यताम्.
आम् आं भगिनि,
स्पष्टं वा इदानीम्?
आं किञ्चित् चिन्तयामि, अवगच्छामि इदानीं.
कस्मिन् विषये संशयः अस्ति?
न जानामि भगिनि इदानीं. श्रुत्वा तत् अवगच्छामि.
अस्तु अस्तु. अग्रे रामप्रिया भगिनी, अस्य च इन्द्रियजन्यत्वादिति वाक्यं पठतु कृपया.
अस्य च इन्द्रियजन्यत्वात् प्रत्यक्षत्वं शास्त्रे सम्मतम्.
अस्य वाक्यस्य किमस्ति सार्थकता का इत्युक्ते प्रत्यभिज्ञा इति स्वीकुर्मः. प्रत्यभिज्ञा केन जातं वा काभ्यां जातं? प्रत्यभिज्ञायाः कारणानि वा कारणे
संस्कारजन्यत्वेन अपि इन्द्रियेण अपि प्रत्यक्षज्ञानेनापि प्रत्यक्षज्ञानं वा इन्द्रियेणापि
प्रत्यक्षज्ञानम् इन्द्रियं तु
चक्षुषा जायते. मम इन्द्रियेण जातम्
इन्द्रियेण जायमाना प्रत्यभिज्ञा. अनन्तरम् अंशद्वयमस्ति खलु
संस्कारेण अपि जन्यत्वं भवति.
समीचीनम्. अस्तु तर्हि पूर्वं दृष्टं प्रत्यभिज्ञा प्रत्यक्षविशेषः इति दृष्टम् अस्माभिः खलु. किमर्थं तर्हि प्रत्यक्षम् इति अस्ति? संस्कारः तु अस्ति तत्र, संस्कारस्य अंशः अस्ति, तथापि प्रत्यक्षविशेषः इति दत्तम् अस्ति, किमर्थम्?
प्रत्यक्षं तु प्रत्यक्षज्ञानं तु इन्द्रियेण जातम् इति कारणात् वा?
प्रत्यक्षज्ञानं तु इन्द्रियेण जातं, समीचीनमेव. परन्तु संस्कारस्य अंशः अपि अस्ति खलु. किमर्थं प्रत्यक्षविशेषः इति उक्तम्? अस्तु तर्हि संस्कारेण जायमाना प्रत्यभिज्ञा. तर्हि स्मृतिः वा? स्मृतिः एव संस्कारेण जायते खलु.
स्मृतिः अपि
स्मृतिः संस्कारेण एव जायते. अत्र किमर्थं प्रत्यक्षविशेषः इति प्रश्नः.
इन्द्रियेण जातं इन्द्रियेण एव जातम् इन्द्रियेण जायम.
अत्र महोदयेन उक्तम् अस्ति यत् अत्र मतभेदः अस्ति, परन्तु अत्र वाक्यम् अस्ति अस्य च इन्द्रियजन्यत्वात् प्रत्यक्षत्वं शास्त्रे सम्मतम् इति. इत्युक्ते प्रत्यक्षत्वम् अस्ति इति कृत्वा सर्वेषां सम्मतम् अस्ति यत् प्रत्यभिज्ञायाः प्रत्यक्षत्वम् इति रूपम् अस्ति इति. केवलं तादृशी चिन्तनं भवेत्. कोऽपि विशेषता कापि विशेषता अस्ति अस्याम् इति महोदयेन उक्तम्. अत्र अखिला भगिनी कोऽपि वदति वा अस्मिन् विषये?
न भगिनि, यथा भवती उक्तवती तथैव. तत्र अत्र किञ्चित् मतभेदः वर्तते इति कृत्वा, परन्तु तत्र इन्द्रियजन्यत्वमस्ति इति कृत्वा प्रत्यक्ष अंशः अस्ति इति सम्मतमस्ति इति तत्र सूचनार्थमेव तत्र सम्मतम् इति अस्ति इति एव.
कस्य विषये तत्र मतभेदः अहं न अवगतवती.
अस्य अस्य इति आरभते खलु द्वितीयपरिच्छेदः अस्य च इन्द्रियजन्यत्वात् इति अस्य इत्युक्ते पूर्वं पूर्वस्मिन् परिच्छेदे प्रत्यभिज्ञायाः वार्ता अतः एव अत्र अस्य अस्य इत्युक्ते ज्ञानस्य प्रत्यभिज्ञा इति ज्ञानस्य इन्द्रियजन्यत्वात् प्रत्यक्षत्वं शास्त्रे सम्मतम् इति अस्ति यद्यपि अंशद्वयम् अस्ति अत्र प्रत्यक्षत्वम् इत्येव शास्त्रे सम्मतं भवति इत्युक्ते कारणत्वं तु संस्कारे अपि तु इन्द्रिये अस्ति परन्तु प्रत्यक्षविशेषः इति उच्यते प्रत्यभिज्ञा प्रत्यक्षविशेषः इति अस्ति पूर्वस्मिन् पुटे द्वितीयवाक्ये प्रत्यभिज्ञा प्रत्यक्षविशेषः संस्कारसहकृतेन इन्द्रियेण जायमानः इति अस्ति तादृशी चर्चा आसीत् गतसप्ताहे शनिवासरे केवलं महोदयेन उक्तं यत् अत्र प्रत्यक्षत्वम् इति अंशं स्वीकृत्य प्रत्यक्षविशेषः इति अस्ति तस्य नामकः इति
भगिनी तत्र मम किञ्चित् चिन्तनमस्ति प्रत्यभिज्ञायाम् अंशद्वयं वर्तते इति वयं जानीमः एकं तु संस्कारेण जन्या भवति अपि च प्रत्यक्षेनापि जन्या भवति प्रत्यभिज्ञा अतः संस्कारविशेषः इति अपि वक्तुं शक्यते प्रत्यक्षविशेषः अपि इत्यपि वक्तुं शक्यते किमर्थं प्रत्यक्षविशेषः इत्येव उक्तम् इत्युक्ते तत्र मम चिन्तनम् एवमस्ति संस्कारः पूर्वं जातं किन्तु तस्मिन् क्षणे प्रत्यभिज्ञा न उत्पद्यते यदा प्रत्यक्षः जायते तदा संस्कारेण मिलित्वा प्रत्यभिज्ञा जायते इति कृत्वा प्रत्यक्षविशेषः इति स्वीकृतम् इति अहं मन्ये
सम्यक् एव महोदय प्रायः तदेव सत्यम् इदानीं तु प्रत्यक्षं
हा यदा प्रत्यक्षः जायते तदा एव प्रत्यभिज्ञा जायते न तु यदा संस्कारं जातं तस्मिन् समये इति कृत्वा प्रत्यक्षविशेषः इति स्वीकृतम् इति अहं मन्ये
नतु स्मृतिविशेषः वा इति इत्युक्ते पूर्वमेव संस्कारः जातः अनुभवः आसीत् इति कृत्वा संस्कारः पूर्वमेव जातः इदानीं तु नूतनतया किमपि न संस्कारविषये अस्ति परन्तु नूतनतया प्रत्यक्षज्ञानं जातम् इति कृत्वा प्रत्यक्षस्य एकविधप्रकारः इति
यत्र यत्र संस्कारः अस्ति तत्र तत्र प्रत्यभिज्ञा जायत्येव इति नियमः नास्ति किन्तु प्रत्यक्षं न भवति चेत् प्रत्यभिज्ञा न जायत्येव इति कृत्वा प्रायः प्रत्यक्षविशेषः इति स्वीकृतम् इति
समीचीनम् एव अपि तु अस्मिन् पुटे विदां कुर्वन्तु इति पदमस्ति अन्तिमे परिच्छेदे विदां कुर्वन्तु तत्र महोदयेन उक्तं यत् विदा इत्युक्ते गतिसंज्ञकपदम् यत् क्रियापदेन एव भवति विदां कुर्वन्ति विदा इति पृथक् न भवति विदा कुर्वन् करोति विदां करोति वा विदां कुर्वन्ति एव अस्ति इति कृत्वा तत्र गतिसंज्ञकपदम् इति महोदयेन उक्तम् अपि तु स्वीकरोति इति पदं स्वीकृत्य तस्य विवरणमपि दत्तं महोदयेन. कोऽपि वदति वा? सरला भगिनी अस्ति वा?
आं भगिनी अस्मि इदानीं.
भवती स्मरति वा?
महोदय उक्तवान् वेदाङ्ग गति सम्यक् शब्दस्य वेदाङ्ग अस्ति, तस्य अर्थं गति प्रत्ययः अस्ति. यदा च्वि प्रत्ययः स्वीकरोति इति क्रियापदेन भवति, यथा नास्ति पूर्वं नास्ति इदानीं जातम्. यथा वयं पिण्डी भाव पिण्डं पूर्वं नास्ति इदानीं पिण्डं जातं. पिण्डी भाव शुक्लीकरोति वा कण्ठस्थीकरोति, पूर्वं कण्ठस्थं नास्ति इदानीं कण्ठस्थं भावम् उष्णीकरोति. एते पदानि च्वि प्रत्ययः अस्ति. स्वीकरोति इत्युक्ते पूर्वं स्वस्य नास्ति इदानीं स्वस्य जातम्.
हा समीचीनम्. स्वीकरोति स्वीप्रत्ययः अस्ति, अपि तु स्वीकरोति इति गतिसंज्ञकपदमपि
गतिसंज्ञकपदम् अपि अस्ति. आम् विद्वान् कुर्वन्तु अत्र सदैव तस्य विदान् करोति कुर्वन्ति अस्य एकाकी न भवति कदापि, अन्यपदेन सह आगच्छति विदान् शब्दः.
परन्तु स्वीकरोति इत्यस्मिन् पदे न तु च्वि प्रत्यये अपि तु
गतिसंज्ञा अपि अस्ति.
समीचीनम्. अस्तु, अद्यतनपाठं पाठः आरभ्यते.
भगिनी, तत्र विधां कुर्वन्तु इत्यस्मिन् तत्र विधाम् इति अन्ते मकारः अस्ति वा? विधाम्
इति मन्ये. अखिल भगिनी किञ्चित् साहाय्यं करोति वा तत्र?
तथैव अहमपि चिन्तितवती भगिनी, तत्र विधां कुर्वन्तु इति तदनन्तरं तत्र सन्धिकार्यं भूत्वा तत्र
अनुस्वारस्य परसवर्णः ङकारः आगच्छति. किन्तु विधाम् इत्येव पदं वा नो चेत् अन्यत् पदं किमपि आसीत् नश्चापदान्तस्य झलि इत्यनेन मकारः तत्र आगतं वा अनुस्वारः तत्र आगतं वा इति मम प्रश्नः आसीत्.
हा, विदाम् इत्येव श्रुतं मया कक्षायां, प्रायः द्रष्टव्यं स्यात् महोदय.
अस्तु अस्तु भगिनि.
इदानीं सन्ध्या भगिनी पठति वा? आधार आदेयभावः इति आरभ्य.
आं भगिनि, आधाराधेयभावः ज्ञानं विनापि भवति, तद्भिन्नं ज्ञानम् अनुभवः, तद्विविधः यथार्थो यथार्थश्चेति, तद्वति तत्प्रकारकोऽनुभवो यथार्थः, यथा रजते इदं रजतमिति ज्ञानं स एव प्रमेस्तिच्यते.
अत्र तद्भिन्नं इति आरभ्य यथार्थो यथार्थो अयथार्थश्च इति पर्यन्तं किञ्चित् प्रतिपादयतु भगिनि.
तद्भिन्नं ज्ञानम् अनुभवः इत्युक्ते अत्र तद् इत्युक्ते स्मृतिः, तर्हि स्मृतिभिन्नं ज्ञानम् अनुभवः इत्युक्ते ज्ञानं विविधं, तत्र स्मृतिः अनुभवः, स्मृतिविषये दृष्टवन्तः इदानीं तस्मात् भिन्नम् अनुभवः इति अस्ति. अनुभवः द्विप्रकारकः, यथार्थानुभवः अयथार्थानुभवः इति.
समीचीनम्. अस्तु, अग्रे पठति वा? तद्वति
तद्वति तत्प्रकारकोऽनुभवो यथार्थः इत्युक्ते अनुभवस्य अत्र लक्षण न, यथार्थानुभवस्य लक्षणवाक्यमस्ति. तद्वति तत्प्रकारकः अनुभवः यथार्थानुभवः इति
अनन्तरं अग्रिमं वाक्यं
यथा रजते इदं रजतम् इति ज्ञानम् इत्युक्ते रजतं दृष्ट्वा यदा अस्माकं ज्ञानं भवति इदं रजतम् इति तर्हि सः यथार्थानुभवः इति अपि च तस्य एव नाम प्रमा इति अपरं नाम
इति संक्षिप्तरूपेण अस्ति. इदानीं किञ्चित् विस्तरेण पश्यामः. घटवत् भूतलं भूतलं घटवत् इत्यस्मिन् वाक्ये इत्यस्मिन् ज्ञानम् इति ज्ञानम् इति स्वीकुर्मः घटवत् भूतलम् इति वा भूतलं घटवत् इति ज्ञानं तादृशे ज्ञाने कति विषयाः सन्ति?
तत्र विषयत्रयम् अस्ति. तत्र एकं तु भूतलम् इति एकम्, अनन्तरं भूतलं घटवत् इति एकम्, अपि च एतावत्पर्यन्तं समीचीनं वा, रैट् ट्रेक् अस्ति वा न वा?
आमां सम्यक् एव भगिनि.
तर्हि भूतलं क्षम्यतां, तर्हि भूतलम् इति एकं, घटः इति अपरं ज्ञानम्, अपि च भूतलं घटवत् अस्ति इति तृतीयं ज्ञानम् इति वा?
हा इत्युक्ते समीचीनमेव. भूतलम् इति एकं ज्ञानं, घटवत् इति अपरं ज्ञानं, तर्हि तृतीयज्ञानं किम् अस्ति? तस्य अर्थः, वाक्यस्य अर्थः कः?
इत्युक्ते भूतले घटः अस्ति इति.
समीचीनं समीचीनम्. इदानीं तर्हि विषयत्रयम् इति अस्ति चेत् पूर्वं वयं पठितवन्तः खलु, ज्ञानं त्रिविधः त्रिविधम् इति. त्रिविधम् इत्युक्ते ज्ञाने कीदृशः विषयः अस्ति, विषयं दृष्ट्वा तस्य नामकरणम् अपि अस्ति खलु?
आम्.
स्मरति वा?
तर्हि तत्र एतत् पृच्छति वा, तत्र ज्ञानम् इति विषयी अस्ति, अपि च तत्र तस्मिन् विषयता अस्ति तत्र.
अत्र भगिनी मम प्रश्नः अस्ति यत् भूतलं घटवत् इत्युक्ते भूतलं केन विशिष्यते इति तादृशं चिन्तनम्. कीदृशं भूतलं?
घटवत् इति अस्ति, तर्हि घटवत् इति तत्र घटः इति विशेषणमस्ति, भूतलमिति विशेष्यमस्ति.
तर्हि भूतलं विशेष्यं, घटः इति विशेषणं, तस्य नाम किम्? अस्माकं लक्षणवाक्येषु बहुषु लक्षणवाक्येषु दृष्टम् अस्माभिः, विशेष्यतानिरूपितं निरूपितज्ञानं प्रकारतानिरूपकं ज्ञानम् इति खलु?
आम्. तर्हि तर्हि इत्युक्ते घटे यद् ज्ञानमस्ति तद् कीदृशं ज्ञानमस्ति चेत् तत्र प्रकारतानिरूपितज्ञानमस्ति, भूतले यदस्ति तद् विशेष्यतानिरूपितम् अस्ति.
समीचीनं. अतः भूतलं विशेष्यं, घटः इति प्रकारः. तर्हि वाक्यस्य अर्थः कः? तृतीयज्ञानं किम्?
तृतीयज्ञानमस्ति तत्र घटभूतलयोः यः सम्बन्धः अस्ति सः तत्र इदानीम् अस्मिन् उदाहरणे घटभूतलयोः सम्बन्धः अस्ति संयोगः, तर्हि तस्य सम्बन्धस्य अपरं नाम तत्र संसर्गता इति. तर्हि संयोगे इत्युक्ते सम्बन्धे तयोः द्वयोः संयोगे संसर्गता इति ज्ञानमस्ति.
समीचीनं, संयोगसम्बन्धः द्वयोः सः एव संसर्गः इति उच्यते. अस्तु, इदानीं भूतलं घटवत् इति उदाहरणं स्वीकृतम्. अत्र इदं रजतम् इति ज्ञानं स्वीकृत्य तथैव प्रतिपादनं कुर्मः. इदं, वदतु भगिनि.
तर्हि इदं रजतम् अपि च भूतलं घटवत् इति द्वयोः वाक्ययोः तत्र समानता साधनीया किल?
भगिनि,
तर्हि इदानीं भूतलम् इति विशेष्यमस्ति, तस्मिन् विशेष्यता अस्ति, अपि च घटे प्रकारता अस्ति, अपि च तत्र संयोगे तत्र संसर्गता इति अस्ति. इदानीम् इदं रजतम् इति यदि स्वीकुर्मः तर्हि तत्र इदम् इति तत्र विशेष्यमस्ति.
भगिनी, अत्र इदं रजतम् इति ज्ञानम् अस्ति, घटवत् भूतलम् इतिवत् समानता साधयामश्चेत् समानतां साधयामश्चेत् रजते किमपि अस्ति, धर्मः अस्ति खलु रजते?
रजते यः रजतत्वं, यद् रजतत्वम् इति अस्ति तद् तस्मिन् अस्ति तत्र प्रकारता, यथा घटे अस्ति प्रकारता तथा रजतत्वे प्रकारता अस्ति.
किमर्थम्?
यतोहि इदं रजतम् इत्यस्मिन् पदे तत्र रजतम् इति इदं रजतम् इति तत्र यथा उन्नतः बालकः इति, तत्र उन्नतः इत्युक्ते बालकः एव अस्ति, बालके औन्नत्यमस्ति, तथा इदं रजतम् इति तत्र एकमेव तत्र पदार्थं दर्शयति, तत्र रजते रजतत्वम् अस्ति इति कृत्वा रजतत्वे तत्र प्रकारता अस्ति इति.
रजतत्वे प्रकारता, यथा भूतले घटः, तर्हि भूतले घटः इति कृत्वा भूतलं विशिष्यते घटेन, अतः घटे घटः प्रकारः वा घटे प्रकारता, तथैव अत्र रजतत्वं रजते अस्ति इति कृत्वा यथा घटः भूतले तथैव रजतत्वं प्रकारः, नियतलिङ्ग लिङ्गकपदमस्ति इति कृत्वा रजतत्वं प्रकारः वा रजतत्वे प्रकारता. रजतम् इति
रजतम् इति तत्र इदम् इत्यस्यैव तत्र समानार्थकपदं
विशेष्यं खलु, यथा भूतलं विशेष्यम् अस्ति.
आम् आम्, इदं वा रजतं वा इति. आम्
आम्, रजतं विशेष्यं, रजतत्वं प्रकारः, तर्हि कीदृशसम्बन्धः द्वयोः?
इदानीं रजते रजतत्वं समवायसम्बन्धेन अस्ति, यतोहि तत्र द्रव्यजात्योः सम्बन्धः समवायः इति कृत्वा, अतः अत्र अस्मिन् उदाहरणे द्वयोः मध्ये संसर्गता समवाये अस्ति.
समीचीनम्, समवायः इति संसर्गः, समीचीनम्. अस्तु भगिनि, अखिला भगिनि, इदानीं रजते रजतत्वं यथार्थज्ञानं कदा भवति?
हा, तर्हि तत्र तद्वति तत्प्रकारको अनुभवः यथार्थः इति अस्ति. तर्हि तत्र रजते रजतत्वम् अस्ति, अपि च अस्माकं ज्ञानं यदा भवति तत्र तत्रापि यदा वयं रजतं दृष्ट्वा सः रजतः तद्रजतं तस्मिन् रजतत्वम् अस्ति इति अस्माकम् आत्मनि अपि तद् ज्ञानं भवति, तदा यदा यथार्थज्ञानम् इति उच्यते. इत्युक्ते इदानीम् अस्माकं पुरतः रजतम् अस्ति, तस्मिन् रजतत्वम् अस्ति. यदा वयं तत् पश्यामः वा न पश्यामः वा, अत्र रजतम् अपि च तस्मिन् रजतत्वम् अस्ति एव. इदानीं यदा वयं तद् रजतं दृष्ट्वा तस्मिन् यत् रजतत्वम् अस्ति तदपि अस्माकम् आत्मनि तद् ज्ञानं भवति चेत् तत् यथार्थज्ञानम्.
तर्हि अयथार्थज्ञानं कदा भवति?
हा, तर्हि इदानीम् अस्माकं पुरतः शुक्तिः अस्ति इति चिन्तयामः. तस्मिन् रजतत्वं तु नास्ति, शुक्तित्वम् अस्ति. परन्तु शुक्तिं दृष्ट्वा तद् रजतम् इति चिन्तयामः चेत् अस्माकं मनसि यद् ज्ञानं भवति तदा तत्र शुक्ते तत्र रजतत्वम् आरोपयामः. तथा अयथार्थज्ञानं भवति. इत्युक्ते यद् वस्तु अस्माकं पुरतः अस्ति तस्मिन् तु तस्य धर्मः एव अस्ति. इत्युक्ते रजतः अस्ति चेत् तस्मिन् रजतत्वं, शुक्तिः अस्ति चेत् तस्मिन् शुक्तित्वं. परन्तु अस्माकं मनसि आत्मनि यदा ज्ञानं भवति तदा शुक्तौ रजतत्वम् अस्ति इति ज्ञानं भवति चेत् तत् यदा अयथार्थज्ञानं भवति.
शुक्तिः इति स्त्रीलिङ्गपदम्. यथा भक्तिः तादृशम्.
किम् उक्तं भवत्या?
शुकवनम् अत्र शुक्तिः इति स्त्रीलिङ्गपदमस्ति.
आम् आम् आम्, परन्तु भगिन्या किम् उक्तम् इति न.
पुल्लिङ्गम् इति मत्वा शुक्तौ,
परन्तु रूपद्वयमपि भवति खलु महोदय, शुक्तौ शुक्त्याम् इति.
आम्,
शुक्तिः इति
इकारान्तः खलु, न तु ईकारान्तः.
आम्,
यथा मतिः इति खलु स्त्रीलिङ्गपदं.
मतौ
मतौ मत्याम् इति द्वयं
मत्याम् इति भवति.
ओ अस्तु.
आम् आम् आम्, भगिनी वदतु भगिनी.
हा, तर्हि शुक्तौ रजतत्वम् इति आरोपयामः चेत् तदा तत्र अयथार्थज्ञानं भवति.
अत्र शुक्तिम् अस्ति, शुक्तिः अस्ति पुरतः, तर्हि तत्र तु विशेष्यं वा विशेष्या विशेषणं तादृशं कथं वदामः?
शुक्तिः, हा, तर्हि शुक्तिः इति इदानीं विषयः इत्युक्ते भूतलं घटवत् इति, तत्र अयथार्थज्ञाने शुक्तिः रजतत्ववत् इति चिन्तयामः चेत् रजतत्वम् इति प्रकार रजतत्वे प्रकारता, तर्हि रजतत्वम् इति प्रकारः. शुक्तिः इति शुक्तौ विषयिता, तर्हि शुक्तिः इति विषयी विशेष्यता, तर्हि शुक्तिः इति विशेष्य तयोः मध्ये समवायसम्बन्धः इति संसर्गः.
समीचीनं. तर्हि यथा भवत्या उक्तम् एतत् ज्ञानं तु अयथार्थज्ञानं भवति, यतोहि शुक्तौ तु रजतत्वं नास्ति, परन्तु शुक्तिं दृष्ट्वा रजतम् इति आत्मनि ब्रह्मः भवति इति कृत्वा भ्रमात्मकज्ञानम् अस्ति अयथार्थज्ञानं, तस्य अन्यत् नामकरणम् अस्ति. रजतत्वं शुक्तौ कदापि न भवति इति कृत्वा तत्तु भ्रमात्मकं ज्ञानम् अस्ति. समीचीनम्. इदानीं शुकमनमहोदय, तद्वति इत्यस्य किञ्चित् प्रतिपादनम्.
तद्वत् तस्य सप्तमी रूपं भवति तद्वति इति.
प्रथमं तद् इत्युक्ते किं, कस्य सूचनं भवति
अत्र? तद् इति इदं इदं रजतम् इति ज्ञानस्य विषये, तद् इति रजतं भवति.
तद् इति
रजतम्.
अस्तु, भूतलं घटवत् इति स्वीकरोतु.
हा 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 हा, क्षम्यतां क्षम्यतां, रजतत्वं रजतत्वं भवति.
तद् इति रजतत्वं,
तद्दिति रजतत्वं, तद्वति इत्युक्ते रजते इति भवति.
रजतत्ववत्
रजतत्ववत् रजतत्ववत् तद्वत् इत्युक्ते तद्दिति रजतत्वं, तद्वत् इति रजतत्ववत्, तद्वति इत्युक्ते रजतत्ववती, नो चेत् रजते इति सप्तमी.
समीचीनं, बहु समीचीनं. तद् इति रजतत्वम् इत्युक्ते रजते यत् अस्ति रजतत्वं, तस्य सूचनं तद् इति. तद्वत् इत्युक्ते तद् रजतत्ववत् इति भवति, रजतत्ववत् इति. तर्हि तद्वति इत्युक्ते सप्तमी विभक्त्यान्तपदं, सप्तम्यान्तपदम् इति कृत्वा तस्मिन् इति अर्थः. यस्मिन् रजतत्वं, यस्मिन् रजतत्वम् इत्युक्ते रजते, रजते रजतत्वम् इति कृत्वा रजते इति आयाति. तद्वति इत्युक्ते रजते इति. स्पष्टः वा एतावता? प्रश्नः अस्ति चेत् कृपया पृच्छन्तु.
अस्तु भगिनी, पुनः वदतु तद्वति.
हा, तद्वति इति अस्ति, तस्य विश्लेषणं कुर्मश्चेत् तद् इत्युक्ते कस्य सूचनं? रजतत्वम् इत्यस्य सूचनं. तद् इत्युक्ते रजतत्वं. तद्वत् यथा घटवत् भूतलं, भूतले घटः अस्ति, यस्मिन् यत् अस्ति तस्य सूचनं खलु. भूतले घटः अस्ति इति कृत्वा घटवत् इति वदामः. घटेन विशिष्यते, रजतत्वेन विशिष्यते रजतं खलु. रजतत्वम् अस्ति इति कृत्वा रजतं भवति. अतः तद् इत्युक्ते रजतत्वं. तद्वत् यथा घटवत्
तद्वत् भवति रजतं,
रजतत् त्ववत् इति भवति खलु. तद् योगः तादृशं, रजतत्ववत् इति. अत्र तु तद्वति इति अस्ति इत्युक्ते सप्तम्यान्तरूपम् इत्युक्ते तद्वति तस्मिन् रजतत्ववति. रजतत्ववति इत्युक्ते रजते इति सूचना.
अस्तु,
यस्मिन् रजतत्वम् अस्ति इति कृत्वा रजते इति. अस्तु, अग्रे भवती एव पठतु. तत् प्रकारको,
तत् प्रकारको अनुभवो यथार्थः.
तथा किल भगिनी इदानीम् उक्तवती तत् भवति रजतत्वं प्रकारः विशेषणम् अस्ति रजतत्व तस्मिन् अस्ति प्रकारता इति रजतत्वं प्रकारः यत् रजते अस्ति तस्य ज्ञानं यत् भवति अनुभव अति यथार्थज्ञानम् अस्ति
समीचीनम् तद् यथार्थः अनुभवः इति रजते रजतत्वम् अस्ति रजतत्वम् इति प्रकारः तत् प्रकारकः अनुभवः इत्युक्ते यस्य सः अनुभवः रजतत्वं प्रकारः वा प्रकारकः इति वदामः रजतत्वं प्रकारः यस्य सः अनुभवः इति विश्लेषणम् यस्य प्रकारः रजतत्वं सः अनुभवः तादृशं ज्ञानम् इति वदामः यथार्थः अनुभवः इति इत्युक्ते यस्मिन्
रजतत्वम्
इति प्रकारः अस्ति इति इदं रजतं तदा इदं रजतम् इति ज्ञानं यथार्थः अनुभवः अस्तु
स एव प्रमा इति उच्यते यथार्थज्ञानं तस्य अन्य नामकरणमस्ति प्रमा यथा वयं पूर्वं पठितवन्तः
अस्तु इदानीं राजेन्द्रमहोदय अस्तु महोदय
आं भगिनि
न श्रूयते श्रूयते अस्तु तर्हि ज्ञानं कदा भवति इत्युक्ते सर्वदा अस्तु ज्ञानस्य विषयत्रयम् इति वयं दृष्टवन्तः खलु विशेष्यं विशेषणं संसर्गः इति खलु अस्तु ज्ञानस्य विषयत्रयम् अस्ति इदानीं सर्वदा प्रत्येकं पदार्थस्य विषयत्रयम् अस्ति वा विषयम् इति अस्ति वा
पुनः पुनः पृच्छतु भगिनि सर्वदा
प्रत्येकं पदार्थस्य विषयः इति अस्ति वा इत्युक्ते प्रत्येकं प्रत्येकसन्दर्भे किमर्थम्
यथा एकस्मिन् प्रकोष्ठे महोदयेन एकम् उदाहरणं महोदयेन एकम् उदाहरणं दत्तवन्तः तत् यदा प्रकोष्ठे रजतम् अस्ति तत्र तथापि अपि तत् रजतत्वम् अस्ति रजते परन्तु यावत् कोऽपि पुरुषः तत्र न गच्छति तत् ज्ञानं न उत्पद्यते यदि तत्र रजतम् अस्ति रजतत्वम् अपि अस्ति परन्तु यावत् कोऽपि तत् पुरुषः गत्वा तत्र न पश्यति प्रत्यक्षं करोति तावत् तत्र तत् ज्ञानं न उत्पद्यते
समीचीनम् इत्युक्ते यदा पुरुषः यत्किमपि पश्यति वा गृह्णाति वा यत्किमपि भवति तदा एव ज्ञानम् उत्पद्यते यदा चक्षुरिन्द्रियेण यद् ज्ञानं भवति यदा पश्यति सः तदा एव ज्ञानं भवति तदा एव ज्ञानस्य विषयः अपि अस्ति खलु ज्ञानस्य विषयः इति वदामश्चेत् ज्ञानं नास्ति चेत् विषयः एव नास्ति खलु ज्ञानस्य विषयः एव न उदेति परन्तु यदा ज्ञानं जायते तदा एव ज्ञानस्य विषयस्य प्रसङ्गः भवति अस्तु इत्युक्ते ज्ञानं नास्ति चेत् सर्वदा धर्मः तु अस्ति एव, रजते रजतत्वम् अस्ति एव, रजतत्वम् इति धर्मः अस्ति, परन्तु न केवलं धर्मः, विषयः कदा भवति? यदा ज्ञानम् उदेति. अस्तु, अतः एव रजतत्ववत् रजतम् इति वस्तुतः ज्ञानम् पूर्वमेव दृष्टम् अस्माभिः. अस्तु,
यदा पुरुषः अन्तः गत्वा तत् पश्यति तत् तदानीम् इदं रजतम् उक्त्वा तस्य मनसि इदम् आत्मनि ज्ञानम् उत्पद्यते.
समीचीनम्. अस्तु, अग्रे सन्ध्या भगिनी पठति वा स्मृतिरूपं कार्यम् इति आरभ्य.
स्मृतिरूपं कार्यं लक्षयित्वा कारणं लक्षयति तद्भिन्नमिति. स्मृतिभिन्नं ज्ञानमित्यर्थः. अनुभवश्च इन्द्रियादि प्रमाणजन्यः संस्कारनिरूपणे दर्शितः. तद्वैविध्यमाह स इति. यः पदार्थः यत्र वर्तते तं तत्र अवगाहते, विषयीकरोति. यः अनुभवः सः यथार्थः. तर्हि स्मृतिरूपं कार्यं लक्षयित्वा कारणं लक्षयति तद्भिन्नम् इति इत्युक्ते तत्र स्मृतेः भिन्नम् अस्ति. अत्र कार्यमिति स्मृतिः, कारणमिति अनुभवः. तर्हि अनुभवः स्मृतेः भिन्नम् अस्ति इति वक्तुं तद्भिन्नम् इति पदम् उक्तम्. तथैव अग्रे स्मृतिभिन्नं ज्ञानम् इत्यर्थः. अनुभवश्च इन्द्रियादिप्रमाणजन्यः संस्कारनिरूपणे दर्शितः इत्युक्ते तत्र अनुभवः इन्द्रियात् इन्द्रियस्य द्वारा एव अनुभवः भवति इति पूर्वं दृष्टम्. तद्वैविध्यम् आह स इति. तर्हि सः, हा, तर्हि सः द्विविधः इति यद्वाक्यमस्ति, अनुभवः द्विविधः, तस्मिन् द्वैविध्यमस्ति इति स इत्यनेन उक्तम्. यः पदार्थः यत्र वर्तते तं तत्र अवगाहते, विषयीकरोति. यः अनुभवः सः यथार्थः इत्युक्ते अनुभवः पुनः यद् द्वैविध्यम् अस्ति अनुभवे, यथार्थः यथार्थः इति, तस्मिन् यथार्थ अनुभवः कीदृशम् अस्ति इत्युक्ते एकस्मिन् स्थले एकः पदार्थः यदि वा कस्मिंश्चित् स्थले कश्चन पदार्थः अस्ति, तं पदार्थम् अनुभूय सः पदार्थः तत्र वर्तते इति यदा ज्ञानस्य विषयः भवति, सः यथार्थानुभवः, अनुभवज्ञानम् इति. इत्येवं किल.
हा, अत्र यः पदार्थः यत्र वर्तते इत्युक्ते मम परमात्मकं ज्ञानम् इति कृत्वा अहं चिन्तयामि शुक्तौ रजतत्वम् अस्ति इति. तत्रापि वर्तते एव इति मम चिन्तनं खलु. तर्हि तत्तु यथार्थज्ञानं न भवति.
परन्तु तत्र शुक्तिः, तत्र रजतं दृष्ट्वा शुक्तिः इति वदामश्चेत् रजते शुक्तित्वं न भवति, परन्तु रजतं दृष्ट्वा तत्र रजतं रजतत्वम् इति सर्वं यदि यदि ज्ञानस्य विषयः भवति तदा एव सः यथार्थः अनुभवः इति.
हा, इति इत्युक्ते वस्तुतः यः पदार्थः, यः पदार्थः वस्तुतः यत्र वर्तते इति इति अवगमनं भवेत्. वस्तुतः रजतत्वं रजते अस्ति, अन्यत्र नास्ति खलु. वस्तुतः रजते एव रजतत्वं भवति न तु शुक्तौ इत्येव आशयः अत्र यः पदार्थः यत्र वर्तते तम् इत्युक्ते किं यः पदार्थः इत्युक्ते किं पदार्थः
पदार्थः इत्युक्ते
अत्र किम् अस्माकम् उदाहरणं किम् अस्ति
अत्र
यत्र वर्तते इति अस्ति इत्युक्ते कस्मिंश्चित् भवति खलु इति कृत्वा यः पदार्थः
यस्मिन् भवति इति
हा इत्युक्ते पदार्थः इत्यस्य सूचनं कस्य सूचनम्
अस्माकम् उदाहरणे इति वा
आम् आम्
तर्हि यः पदार्थः इति तत्र रजतत्वम् इति
समीचीनं समीचीनं
यत्र वर्तते इत्युक्ते रजते इति
हा इति कृत्वा यत्र वर्तते रजते वर्तते तं
तत्र अवगाहते इत्युक्ते रजतत्वं तत्र इत्युक्ते रजते इति पुनः
समीचीनम् अवगाहते तर्हि क्रमं परिवर्त्य वाक्यं वदतु कृपया
इत्युक्ते रजतत्वं रजते वर्तते इति यदा ज्ञानं भवति तर्हि तदा सः यथार्थ अनुभवः इति
समीचीनं भगिनि इत्युक्ते अनुभवः पदार्थम् अवगाहते इति आयाति खलु अनुभवः इति ज्ञानं पदार्थम् अवगाहते यः पदार्थः यत्र वर्तते तम् अवगाहते इत्युक्ते अनुभवः रजतत्वम् अवगाहते रजतत्वं कुत्र रजते रजते विद्यमानं रजतत्वम् अनुभवः यदा अवगाहते तदा सः अनुभवः यथार्थः अनुभवः भवति इति खलु स्पष्टं वा
भगिनि
सरला भगिनि स्पष्टं राजेन्द्रमहोदय यथार्थ अनुभवः कः
आम् विस्मृतवान् अहं न्यूस् मध्ये आसम् श्रूयते वा
आम् 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 वदतु यथार्थ अनुभवः कः
यथार्थ अनुभवः अस्ति यत्र यः पदार्थः इत्यस्मिन् उदाहरणे रजतत्वं रजते वर्तते रजतत्वं रजते अवगाहते विषीकरोति सः अनुभवः अनुभवः
समीचीनं समीचीनम् अस्तु अग्रे अखिला भगिनी पठति वा अयम् आशय
आं भगिनि अयम् आशयः दीपिकादृष्टान्तेन ज्ञानस्य प्रकाशत्वं वर्णितमेव तेन च ज्ञानेन विषयता निरूप्यते यस्मिन् पदार्थे सा विषयता सः ज्ञानस्य विषयः न अन्यः इति च ब्रूमः सा च विषयता त्रिविधा प्रकारता संसर्गता विशेष्यता च इति प्रकारतादयः पदार्थाः ज्ञाने सत्येव भवन्ति ज्ञानानुत्पत्तौ तु न पदार्थे प्रकारता न संसर्गता नापि विशेष्यता यथा इदं रजतम् इति प्रकृतोदाहरणे एतद्यथार्थज्ञाननिरूपिता प्रकारता रजतत्वे संसर्गता समवाये इदं पदार्थे विशेष्यता च भवति यदा तु ज्ञानं नास्ति तदा न रजतत्वे प्रकारता न समवाये संसर्गता नापि इदमी विशेष्यता तर्हि एतदपि वयं किञ्चित् चर्चितम् एव पूर्वम् अस्माभिः. दीपिका दृष्टान्तेन ज्ञानस्य प्रकाशत्वं, तत्र पूर्वं वयं तत्र ज्ञानस्य भागत्रयम् इति दृष्टवन्तः, यथा विशेष्यता, संसर्गता, प्रकारता इति ज्ञाने ज्ञानस्य विषयः इति. तर्हि प्रथमं तु यदा ज्ञानम् इति सविषयकपदार्थः, तर्हि यदा पदार्थे विषयता अस्ति, यस्मिन् पदार्थे विषयता अस्ति तदेव ज्ञानस्य विषयः. इत्युक्ते इदानीं रजतम् इदं रजतम् इति अस्माकं प्रकृत उदाहरणं पश्यामः चेत् तत्र ज्ञानस्य विषयः अस्ति रजतम् इति एव, यथा इदं रजतम् इति यत् विषयः अस्ति तदेव ज्ञानस्य विषयः अस्ति. तत्र त्रिविधविषयता अस्ति, इत्युक्ते इदानीं तत्र इदम् इति एकं, रजतत्वम् इति द्वितीयं, तयोः मध्ये विद्यमानः सम्बन्धः इति तृतीयम्. इदम् इति विशेष्यः, इत्युक्ते तत्र रजतम् इति विशेष्यः, तस्मिन् विशेष्यता अस्ति. रजतत्वम् इति विशेषणं, तस्मिन् प्रकारता अस्ति. इदानीं रजतम् अपि च रजतत्वं तयोः मध्ये समवायसम्बन्धः अस्ति, सह सम्बन्धः एव संसर्गः, तस्मिन् संसर्गता अस्ति इति. इदानीं यथा वयं पूर्वं दृष्टवन्तः, तत्र यदा ज्ञानमस्ति तदा एव एतत् सर्वं भवति. इत्युक्ते ज्ञानमस्ति चेदेव ज्ञाने विषयः इति प्रसङ्गः, तर्हि तदा तत्र विषयता अपि च त्रिविधा विषयता इति सर्वं. यदा ज्ञानं नास्ति तदा विषयता अपि तत्र न भवति. इत्युक्ते इदानीं न ज्ञानं न प्रकोष्ठे रजतम् अस्ति, रजते तु रजतत्वम् अस्ति एव, परन्तु कस्यापि ज्ञानं नास्ति चेत्, इत्युक्ते तत्र इदं रजतम् इति ज्ञानं कस्यापि नास्ति चेत्, तर्हि तत्र विषयता तत्र नास्ति. इत्युक्ते तत्र रजतत्वे प्रकारता, रजते विशेष्यता, तयोः मध्ये संसर्गता इति तत्सर्वं तस्यापि उत्पत्तिः न भवति इति अत्र विषयः. इदानीं
तावदेव वर्गे सम्पूर्णपरिच्छेदं न चर्चितम् आसीत्, केवलं वाक्यद्वयमेव इति मन्ये.
सत्यं भगिनि, तदर्थमेव अहं ज्ञातवती अग्रे वक्तव्यं
वा. न न अस्तु, धन्यवादः भगिनि. रामप्रिया भगिनी, दीपिका रामप्रिया भगिनी अस्ति वा?
आम् आम् अस्मि भगिनि, श्रूयते किल?
श्रूयते. ज्ञानम् इति दीपः इति स्वीकुर्मश्चेत् विषयः कः, विषयता कुत्र, विषयिता कुत्र इति वदति वा?
ज्ञानम् इति दीपः स्वीकुर्मः चेत् तत्र त्रिप्रकारकज्ञानं भवति. यदा एतदेव उदाहरणं स्वीकुर्मः वा भगिनि, इदं रजतम् इति, तत्र इदं रजतम् इति ज्ञाने तत्र रजतम् इति विशेष्यं, रजते विशेष्यता इति ज्ञानमस्ति, रजतत्वम् इति रजतस्य धर्मः अस्ति, रजते अस्ति तत्.
इदानीं तु विषयः इति अङ्गीकृतः खलु,
विषयः इति
ज्ञानस्य विषयः. यदा ज्ञानस्य ज्ञानम् उदेति तदा एव ज्ञानस्य विषयः इति यद्भवति
यदा वयं दृष्ट पश्यामः चेत्.
इत्युक्ते अत्र रजतत्वं यदस्ति तत्तु विशेषणं भवति. यतोहि ज्ञानं तु अस्ति, ज्ञाने अस्ति इति कृत्वा एव ज्ञाने कश्चन विषयः अस्ति, विषयत्रयम् अस्ति, तेषु रजतत्वम् इति एकः विषयः यद् विशेषणं भवति. इदानीं तु धर्मः तु यदा स्वयमेव अस्ति, तस्य दर्शनं नास्ति, ज्ञानमेव नास्ति चेत् धर्मः इति
वक्तुं शक्नुमः. इदानीं रजतत्वम् इति विशेषणम् अस्ति, तत्तु प्रकारः इति ज्ञानं, रजतत्वे प्रकारता इति ज्ञानम् अस्ति. द्वयोः यदा रजतत्वं रजतयोः मध्ये तु समवायसम्बन्धः अस्ति, द्रव्य गुणयोः इति, रजतम् इति द्रव्यं, रजतत्वम् इति गुणं.
इदानीं भगिनी भवती विषयता कुत्र, विषयिता कुत्र इति वदति वा?
इदं रजतं,
रजतम् इति ज्ञानं,
ज्ञानं तत्र
विषयः कः?
विषयः ज्ञानस्य विषयः तु रजतम् इति ज्ञानमेव विषयः.
रजतम् इति
रजतविषयकज्ञानं, रजतविषयकज्ञानम्
इत्युक्ते अस्माकं पुरतः रजतम् अस्ति, रजतम् इति विषयः अस्ति इति कृत्वा रजते किम् अस्ति?
रजते विषयता अस्ति.
समीचीनं. ज्ञाने
विषयिता अस्ति, ज्ञाने विषयिता.
समीचीनम्. इदानीं ज्ञानं किं निरूपयति?
रजतनिष्ठ विषयता निरूपित विषयिताश्रयः ज्ञानम्. ज्ञाननिष्ठ विषयिता निरूपित विषयताश्रयः रजतम्.
विषयतायाः निरूपणम्?
विषयतायाः निरूपणम् इत्युक्ते ज्ञाननिष्ठ विषयिता निरूपित रजतनिष्ठ विषयता.
समीचीनं, समीचीनम्. अतः तेन च ज्ञानेन विषयता निरूप्यते इति अस्ति खलु?
कुत्र?
द्वितीयं वाक्यं,
द्वितीयवाक्यं. तेन च ज्ञानेन,
तेन च ज्ञानेन इत्युक्ते कीदृशेन ज्ञानेन?
तेन च ज्ञानेन विषयता निरूप्यते. यदा वयम्
इदं तु रजतम् इति, रजतं ज्ञाने विषयिता अस्ति, ज्ञाननिष्ठविषयता निरूपित रजतनिष्ठविषयता इति दृष्टं, तर्हि ज्ञानेन किं निरूप्यते? तृतीयया विभक्त्या,
ओ ज्ञानेन. प्रश्नः मया न अवगतं भगिनि, क्षम्यतां.
ज्ञानं विषयतां निरूपयति खलु?
आम्.
ज्ञाननिष्ठविषयिता निरूपितविषयता इति अस्ति. इत्युक्ते ज्ञानेन किं निरूप्यते?
ओ विषयता निरूप्यते.
विषयता निरूप्यता, तदेव अस्ति. अतः यस्मिन् विषयता सः एव ज्ञानस्य विषयः इति. इत्युक्ते तादृशनिरूपणं कृत्वा विषयः कः इति अवगच्छामः. ज्ञानेन यत् निरूप्यते इत्युक्ते विषयता निरूप्यते इति कृत्वा तादृशी विषयता कुत्र अस्ति विषये अस्ति इति कृत्वा ज्ञानस्य सः एव ज्ञानस्य विषयः इति अस्तु तावदेव चर्चितं प्रश्नः अस्ति वा एतावत्पर्यन्तं स्पष्टं वा अस्तु प्रश्नः नास्ति चेत् विरमामः
धन्यवादः
आम् धन्यवादः शुभरात्रिः